ಹವಾಮಹೆ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನ ಶೃಣ್ವನ್ ನೋತಿಭಿಃ ಸೇದಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜಿನೀವತೀ ಧೀನಾಮವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರಿ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೇ ರುದ್ರಮಣ್ಯವ ಉತೋ ತೈಷವೇ ನಮಃ ನಮಸ್ತೇ ಅಸ್ತು ಧನ್ವನೇ ಬಾಹುಭ್ಯಾಮುತತೇ ನಮಃ ಯಾತೈಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೇ ಧನುಃ ಶಿವಾಶರವ್ಯಾಯ ತವತಯಾ ನೋ ರುದ್ರಮೃಡಯ ಯಾದೇ ರುದ್ರ ಶಿವಾ ತನೂರ ಘೋರ ಪಾಪಗಾಶಿನೀ ತಯಾನಸ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶಂತಾಭಿಶಾಖಸೀ ಯಾಮಿಷುಂ ಗಿರಿಶಂತಹಸ್ತೇ ಬಿಭರ್ಷ್ಯಸ್ತವೇ ಶಿವಾಂಗಿರಿತ್ರತಾಂ ಕುರು ಮಾಹಿ ಗುಂಸಿ ಪುರುಷಂ ಜಗತ್ ಶಿವೇನ ವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಛಾವದಾಮಸಿ ಯಥಾ ನಃ ಸರ್ವಮಿಜ್ಜಗದ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾ ಅಸತ್ ಅಧ್ಯವೋಚದಧಿ ವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ್ ಅಹೇಯಶ್ಚ ಸರ್ವಾನ್ ಜಂಭಯನ್ ಸರ್ವಾಶ್ಚ ಯಾತು ಧಾನ್ಯಃ ಅಸೌ ಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಬಭ್ರಸ್ವ ಮಂಗಳಃ ಯೇ ಚೇಮಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷು ಶ್ರಿತಾ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಳಹೀಮಹೇ ಅಸಂಯೋ ವಸರ್ಪತಿ ನೀಲಗ್ನೀಭೋ ವಿಲೋಹಿತಃ ಉದೈನಂ ಗೋಪ ಅದೃಶನ್ನದೃಶನ್ನುದಹಾರ್ಯಃ ಉದೈನಂ ವಿಶ್ವಾಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಳಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಡುಷೇ ಅಥೋ ಯೇ ಅಸ್ಯ ದತ್ವಾ ನೋಹಂ ತೇಭ್ಯೋ ಕರಣ್ಣವಃ ಪ್ರಮುಂಚ ಧನ್ವನಸ್ತ್ವಮುಭಯೋರಾತ್ಮಿಯೋರ್ಜ ಯಾಶ್ಚ ತೇ ಹಸ್ತ ಇಷವಃ ಪರಾತ ಭಗವೋ ವಪ ಅವತತ್ಯ ಧನುಸ್ತ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷು ದೇ ನಿಶೀರ್ಯ ಶಲ್ಯಾಣಾ ಮುಖ ಶಿವೋ ನಃ ಸುಮನಾ ಭವ ನಿಜ್ಯಂ ಧನು ಕಪರ್ದಿನೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂ ಮುತ ಅನೇಶನ್ನಸ್ಯೇಷವ ಆಭುರಸ್ಯ ನಿಷಂಗತಿಃ ಯಾತೇ ಹೇತಿರ್ಮೇಣುಷ್ಟ ಮಹಸ್ತೆ ಬಭೂವತೇ ಧನುಃ ತಯಾಸ್ಮಾನ್ ವಿಶ್ವತಸ್ತ್ವಮಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜ ನಮಸ್ತೆ ಅಸ್ತ್ವಾಯುಧಾಯಾನಾತದಾಯ ಕೃಷ್ಣವೇ ಉಭಾಭ್ಯಾಮುತ ತೇ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೇ ಪರಿತೇ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ವೃಣಕ್ತು ವಿಶ್ವತಃ ಅಥೋ ಯಿಷುಸ್ತವಾರೇ ಅಸ್ಮನ್ನಿಧೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಯಂಬಕಾಯ ತ್ರಿಪುರಾಂತಕಾಯ ತ್ರಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ ನಮೋ ಹಿರಣ್ಯಬಾಹವೇ ಸೇನಾನ್ಯೇ ದಿಶಾಂ ಚ ಪತಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ हरिगेशेभ्यः पशूनाम् पतये नमो नमः सस्मिञ्जरायत्विषीमते पथीनाम् पतये नमो नमो बभ्लुषाय विव्याधिनेन्द्रानाम् पतये नमो नमो हरिगेशायोमवीदिने पुष्टानाम् पतये नमो नमो भवस्य हेत्ये जगताम् पतये नमो नमो रुद्राया तथा विने क्षेत्राणाम् पतये नमो नमः सूताया अन्त्यायवनानाम् पतये नमो नमो रोहिताय स्थपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्त एवारिव कृतायौषधीनाम् पतये नमो नमः उच्चैर्घोषाय क्रन्दयते पत्तीनाम् पतये नमो नमः कृष्णवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिने स्तेनानाम् पतये नमो नमो निषङ्गिन इषुधिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्थायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः सृकामिभ्यो जिगागुंसद्भ्योमुष्णता पतये नमो नमो सिमद्भ्यो नक्तम् चरद्य प्रकृन्तानाम् पतये नमो नमः उष्णीषिणे गिरिचराय कुदुञ्चानाम् पतये नमो नमः इषुमद्भ्यो दन्वाविभ्यश्च भो नमो नमः आदन्वानेभ्य प्रतिददानेभ्यश्च भो नमो नमः आयच्छद्भ्यो विसृजभ्यश्च भो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च भो नमो नमः आसीनेभ्यश्च यानेभ्यश्च भो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च भो नमो नमः तिष्ठद्भ्यो दावभ्यश्च भो नमो नमः सभाभ्यः सभावधिभ्यश्च भो नमो नमो अश्वेभ्यो अश्वमधिभ्यश्च भो नमः नमः व्याधिनीभ्यो विविध्यन्तीभ्यश्च भो नमो नमः उगणाभ्यस्त्रगुम्हतीभ्यश्च भो नमो नमो घृत्सेभ्यो घृत्सवनिभ्यश्च भो नमो नमो व्रातेभ्यो व्रातपदिभ्यश्च भो नमो नमो गणेभ्यो गणपदिभ्यश्च भो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च भो नमो नमो महद्भ्यः शुल्लकेभ्यश्च भो नमो नमो रथिभ्यो रथेभ्यश्च भो नमो नमो रथेभ्यो रथपदिभ्यश्च भो नमो नमः सेनाभ्यः सेनानिभ्यश्च भो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च भो नमो नमः सक्षम्यो रथकारेभ्यश्च भो नमो नमः कुलालेभ्य कर्मारेभ्यश्च भो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च भो नमो नमः इषुकृद्भ्यो धन्वकृद्भ्यश्च भो नमो नमो मृगयोभ्यश्वरिभ्यश्च भो नमो नमः स्वभ्यश्वपदिभ्यश्च भो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च चितिकण्ठाय च नमः కపర్దినే సంయుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిభిభిష్టాయ చ నమో మీరుష్టమాయ చేషుమదే చ నమో రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షీయసే చ నమో వృద్ధాయ చ సంవృద్ధనే చ నమో అగ్రియాయ చ ప్రథమాయ చ నమః ఆశవే చాజిరాయ చ నమః శీంగ్రియాయ చ శీమ్యాయ చ నమః ఊర్మ్యాయ జావస్వన్యాయ చ నమః శ్రోతస్యాయ చ వీప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చాపరజాయ చ నమో మధ్యమాయ చాపగల్భాయ చ నమో జగన్యాయ చ బుద్ధ్నియాయ చ నమః సోమ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ కళ్యాయ చ నమః శోక్యాయ చావసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుసేనాయ చాశురథాయ చ నమః శూరాయ జావవిందతే చ నమో వర్మినే చ వరుతినే చ నమో విల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ జాధన్యాయ చ నమో విష్ణవే చ ప్రభుశాయ చ నమో దూతాయ చ ప్రైదాయ చ నమో నిషంగినే చేషు ధీమతే చ నమః స్తీష్ణేశవే చాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పథ్యాయ చ నమః కాట్యాయ చ నీప్యాయ చ నమః సూంద్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైషంతాయ చ నమః కూప్యాయ చ భట్యాయ చ నమో వర్ష్యాయ చ వర్ష్యాయ చ నమో మేంద్యాయ చ విద్యుత్యాయ చ నమః ఇంద్రియాయ జాతవ్యాయ చ నమో వాత్యాయ చ రేష్మ్యాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః సామ్రాయ చ అరుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వదాయ చ దూరే వదాయ చ నమో అంద్రే చ హనీయసే చ నమో వృక్షేభ్యో అరిషేభ్యో నమస్తారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమః శీత్యాయ చ కూల్యాయ చ నమః పార్యాయ చ వార్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆతార్యాయ చ లామ్యాయ చ నమః శష్ప్యాయ చ పేన్యాయ చ నమః శిఖత్యాయ చ ప్రభాహ్యాయ చ నమ ఇభిన్యాయ చ ప్రపత్యాయ చ నమః కిగుం శిలాయ చ క్షయనాయ చ నమః కపర్దినే చ పులస్తయే చ నమో గోష్ఠ్యాయ చ గృహ్యాయ చ నమః సల్మ్యాయ చ గేహ్యాయ చ నమః కాట్యాయ చ గహ్వరేష్ఠాయ చ నమో హృదయ్యాయ చ నివేష్ట్యాయ చ నమః పాగం సవ్యాయ జరజస్యాయ చ నమః శుష్ట్యాయ జహరిత్యాయ చ నమో లోప్యాయ జోలప్యాయ చ నమః ఊర్వ్యాయ జ సూర్మ్యాయ చ నమః पर्ण्याय च वर्णशद्याय च नमो पगुरमाणाय चामिघ्नते च नमः आखिधते च प्रखिधते च नमो वक्किरिकेभ्यो देवानागुम् हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीभत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मा रोमो येषाम् किञ्चनावमत् याते रुद्रशिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे दयानो मृणजीवसे इमागुम् रुद्राय तवसे कपर्दिने जयद्वीराय प्रवरामहे मतिम् यता नः श्रमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनो मयस्कृते क्षयद्वीराय नमसा विधेमते यच्छम् च योश्रमनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानः सनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभामितो वदे हविष्मन्तो नमसा विधेमते साराप्ते गोग्न उत पोरुषग्ने क्षयद्वीराय तुम् नमस्मेते अस्तु रक्षा च नो अधि च देव ब्रूयता च नः शर्म यच्च त्रिवर्हाः सुहिश्रुतम् गत्तदम् युवानम् मृगन्न भीममुपहत्वमुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परिवेशस्य दुर्मतिरगायो अवस्ति रामरवन्यस्तनुष्वमीडस्तोकायतनयाय मृडया मीडुष्टमशिवदम शिवो नः सुमना भव परमे वृक्ष आयुधम् निधाय कृत्तिम् वसा न आचरपि नागम् विप्रदागहे विकिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रवम् एतयोन्यमस्मन्निव पन्तुताः सहस्राणि सहस्रधा बाहुवोत्सव हेतयः तासामीशानो भगवः पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्र अधिभूम्या तेषागुम् सहस्रयोजने वदन्वानि दन्मसि अस्मिन्महत्यर्नमेन्दरिक्षे भवादि नीलग्रीवाशितिकण्ठा शर्वा अधः क्षमाचरा नीलग्रीवाशितिकण्ठा दिवगुम् रुद्रा उपश्रिता ये वृक्षेषु सस्मिञ्जरा नीलग्रीवा विलोहिता ये भूतानामधिपतयो विशिकास कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु पिबतो जनान् ये पताम् पतिरक्षय ऐलभृदायव्युदः ये तीर्थानि प्रचरन्ति श्रुकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्राभितस्थिरे तेषागुम् सहस्रयोजने वधन्वानि दन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि येषामन्नम् वातो वर्षमिषभस्तेभ्यो दश प्राचे दश दक्षिणा दश प्रदेचेदशो दिचेदशोद्वास्तेभ्यो नमस्ते नो मृळयन्तु देयम् भीष्मो यश्च नोन्वेषितम् भोजम् वेददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षेयमामृतात् यो रुद्रो अग्नव्यो अप्सुरवोषदेशु यो रुद्रो विश्वाभुवनाभिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्यो मत्याय अन्तरे ताङ्गज्ञस्य मायया सर्वानवयजामहे नृत्यवे स्वाहा नृत्यवे स्वाहा प्राणानाम् ग्रन्थिरधिरुद्रो मामिशान्तकः तेनान्नेनाभ्याय स्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु यस्वशुसुदन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वामहेतौ मनसाय रुद्रम् नमो विद्देवमसुरम् नुवस्य अयम् मे अस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्वभेषजोऽयं शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसेवा वर्धन्तु वां गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे ज्येष्ठ्यम् च म आधिपत्यम् च मे मन्युश्च मे भामश्च मेमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगश्च मे धनम् च मे वशश्च मे तृषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमानम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यश्च मे सुखम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे क्लृप्तम् च मे क्लृप्तिश्च मे मतिश्च मे सुमतिश्च मे शम् च मे मयश्च मे प्रियम् च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविश्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे
शीलं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नाभयश्च मे जीवादुश्च मे दीर्घायुत्वं च मे नमित्रं च मे भयं च मे सुगं च मे शयनं च मे शोषा च मे सुदिनं च मे ऊर्क्ष मे सुनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे शक्तिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे चैत्रं च मौद्भिद्यं च मे रजिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कूयवाश्च मे नं च मे शुश्च मे व्रीहयश्च मे यवाश्च मे माचाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे शामाघाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे शिखराश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे द्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च मापश्च मे विरुधश्च मौषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ता वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे पशु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुधश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे ज्योतिश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंसुश्च मे रश्मिश्च मे दाभ्यश्च मे दिवतिश्च म उपागुंसुश्च मेऽन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे भङ्क्ति च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्रहाश्च मे त्रिग्राह्याश्च मे ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे मारेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्रीवतश्च मे आर्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे तृष्णीयाश्च मे सुरश्च मे समसाश्च मे ग्रामाणश्च मे स्वरवश्च मे उरवश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे भूतभृच्छ म आधवनीयश्च म आग्नेर्धं च मे अविर्धानं च मे गृहाश्च मे सदश्च मे पुरोणाशाश्च मे पशदाश्च मे भवतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मे कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे द्वितिश्च मे द्वितिश्च मे द्योश्च मे चत्वरिरङ्गुलज्योतिषश्च मे यज्ञेन कल्पन्ताम्रक्ष मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतं च मे होरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेता गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाच्य मे दित्यौ हे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्य मे तुर्यौ हे च मे पष्टवाच्य मे पष्टौ हे च म उक्षा च मे वशा च मऋषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मे अष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मे अष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षत्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मे अष्टाचत्वारिगुंशच्च मे वारश्च प्रसवश्च बीजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्ता मदानिशगुंसि षद्विश्वे देवासोक्तवाच पृथिविमा धर्मा माधिगुंसि मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासरु शुश्रूषेण्याम् मनुष्येभ्यस्तम् मा देव अवन्तु शोभायै पितरोऽनुमदन्तु ॐ शान्ति शान्ति शान्तिः ॐ अग्निर्मे वाजिश्रितः वाग्हृदये हृदयं मयि अहमृते అమృతం బ్రహ్మణి వాయుర్మే ప్రాణేశ్రితః ప్రాణో హృదయే హృదయం మయే అహమమృతే అమృతం బ్రహ్మణే సూర్యో మే చక్షుషశ్రితః చక్షుర్హృదయే హృదయం మయే అహమమృతే అమృతం బ్రహ్మణే చంద్రమా మే మనసి శ్రితః మనోహృదయే హృదయం మయే అహమమృతే అమృతం బ్రహ్మణే దిశో మే శ్రోత్రే శ్రితాః శ్రోత్రగుం హృదయే హృదయం మయే అహమమృతే అమృతం బ్రహ్మణే ఆపో మే రేతసి శ్రితాః రేతో హృదయే హృదయం మయే అహమమృతే అమృతం బ్రహ్మణే పృథివీ మే శరీరే శ్రితాః శరీరగుం హృదయే హృదయం మయే అహమమృతే అమృతం బ్రహ్మణే ఓషధి వనస్పతయో మే లోమసి శ్రితాః లోమాని హృదయే హృదయం మయే అహమమృతే అమృతం బ్రహ్మణే ఇంద్రో మే బలే శ్రితః బలగుం హృదయే హృదయం మయే అహమమృతే అమృతం బ్రహ్మణే పర్జన్యో మే మూర్ధ్నిశ్రితః మూర్ధ్నాహృదయే హృదయం మయే అహమమృతే అమృతం బ్రహ్మణే ఈశానో మే మన్యో శ్రితః మన్యుర్హృదయే హృదయం మయే అహమమృతే అమృతం బ్రహ్మణే ఆత్మామ ఆత్మని శ్రితః ఆత్మా హృదయే హృదయం మయే అహమమృతే అమృతం బ్రహ్మణే పునర్మ ఆత్మా పునరాయురాగాత్ పునః ప్రాణ పునరాకూతమాగాత్ వైశ్వానరో రశ్మిభిర్వామృధానః అంతస్తిష్ఠత్వమృతస్య గోపాః ఓం శాంతి శాంతి శాంతిః ఓం విష్ణోర్నుకం వీర్యాణి ప్రవోచం యః పార్థివాని విమమే రజాగుంసి యో అస్కభాయదుత్తరగుం సదస్తం విచక్రమానత్రేదోరుగాయః విష్ణోరరాటమసి విష్ణో పృష్ఠమసి విష్ణో శ్రప్త్రేస్తు విష్ణో శూరసి విష్ణో ధ్రువమసి వైష్ణవమసి విష్ణవేత్వా తదస్య ప్రియమభిపాతో అస్యాం నరో యత్ర దేవయవో మదంతి ఉరుక్రమస్య సహి బంధురిద్ధా విష్ణో పదే పరమే మధ్వ ఉత్సహ ప్రతద్విష్ణుస్తవతే వీర్యాయ మృగో న భీమకుచరో గిరిష్ఠాః యస్యోరిషు త్రిషు విక్రమణేషు అధిక్షియంతి భువనాని విశ్వా పరో మాత్రయా తనువా వృధానా నతే మహిత్వమన్వష్ణువంతి ఉభేతే విద్మరజసే పృథివ్యా విష్ణో దేవత్వం పరమస్య విత్సే విచక్రమే పృథివీ మేష ఏతాం క్షేత్రాయ విష్ణుర్మనుషే దశస్యన్ ధ్రువాసో అస్య కీరయో జనాసః ఉరుక్షితిగుం సృజనిమాచకార
सिद्धेव पृथिवीमेष एताम् विचक्रमेष तश्च संवहित्वा प्रविष्णुरस्तु तव सस्तवीयान् तेष गुह्यस्य स्थविरस्य नाम अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे पृथिव्या सप्तधामभिः इदम् विष्णुर्विचक्रमे त्रेधानि दधे पदम् समूढमस्य पागुंसुरे त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः ततो धर्माणि धारयन् विष्णो कर्माणि पश्यत यतो व्रतानि पश्वशे इन्द्रस्य युज्यः सखा तद्विष्णो परमम् पदगुम् सदा पश्यन्ति सूरयः दिवेव चक्षुरागतम् तद्विप्रासो विपण्यवो जाग्रवागु सस्यमिन्धते विष्णोर्यत्परमम् पदम् पर्याप्या अनन्तरायाय सर्वः सोमोदिरात्र उत्तममहर्भवति सर्वस्याद्धि सर्वस्य दिद्धि सर्वमेव तेनाप्नोति सर्वम् जयति ॐ शान्ति शान्ति शान्तिः ॐ यश्चन्दसा मृषभो विश्वरूपः छन्दोऽभ्यो जनुता सम्बभूव समेन्द्रो मेधया स्पृणोतु अमृतस्य देहधारणो भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरि विश्रुवम् ब्रह्मणः कोशोऽसि मेधया पिहितः श्रुतम् मे गोपाया मेधा देवी जुषमाणा आघा विश्वाचे भद्रासु मनस्यमाना त्वया जुष्टानुतमाना दुरुक्ता बृहत्वतेम विदतेषु वीरा त्वया जुष्ट ऋषिर्भवति देवि त्वया ब्रह्मा गदश्रीरुतत्वया त्वया जुष्टच्छिद्रम् विन्दते वसुसानो जुषस्वद्रविणो न मेधे मेधाम् महीन्द्रो ददातु मेधाम् देवी सरस्वती मेधाम् मे अश्विना उभावादत्ताम् पुष्करस्रजा अप्सरासु चया मेधा गन्धर्वेषु चयन्मनः दैवी मेधा सरस्वती सामा मेधा सुरभिर्जुषताग् स्वाहा आमा मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगति जगम्या ऊर्जस्वती पयसा पिन्वमाना सामा मेधा सुप्रतीका जुषन्ता मयि मेधाम् मयि प्रजाम् मयि यज्ञस्तेजो ददातु मयि मेधाम् मयि प्रजाम् मयीन्द्र इन्द्रियम् ददातु मयि मेधाम् मयि प्रजाम् मयि सूर्यो प्राजो ददातु हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात् राजाधिराजाय प्रसह्य साहिने नमो वयम् वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातु गुभेराय वै श्रवणाय महाराजाय नमः स्वस्ति प्रचाप्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहेशा गोब्राम् ब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः